अग्रे पश्यामि तेजो निबिडतर कलायावली लोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेशं तारुण्यारम्भरम्यं परमसुखरसास्वाद रोमाञ्चिताङ्गैः आवीतं नारदाद्यैः विलसदुपनिषत्सुन्दरी मण्डलैश्च नीलाभं कुञ्चिताग्रं घनम् अमलतरं संयतं चारुभङ्ग्या रत्नोत्तं साभिरामं वलयितं उदयच्छन्द्रकैः पिञ्छजालैः मन्दारस्रङ्निवीतं तव पृथुकबरीभारम् आलोकयेहं स्निग्धश्वेतोर्ध्वपुण्ड्राम् अपि च सुललितां फालबालेन्दुवीथीं हृद्यं पूर्णानुकम्पार्णव मृदुलहरी चञ्चलभ्रूविलासैः आनीलस्निग्धपक्ष्माबलि परिलसितं नेत्रयुग्मं बिभोते सान्द्रच्छायं विशालारुणकमलदलाकारम् आमुग्धतारं कारुण्यालोकलीला शिशिरितभुवनं क्षिप्यतां मय्यनाथे उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपालीव्यालोलत्कर्णपाशाञ्चितमकरमणिः कुण्डलद्वन्द्वदीप्रम् उन्मीलद्दन्तपङ्क्ति स्फुरदरुणतरच्छाय बिम्बाधरान्तप्रीति प्रस्यन्दि मन्दस्मितमधुरतरं वक्त्रम् उद्भासतां मे बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाळेन उपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुळी सङ्गशारां कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागम् उद्भाव्यमानैः शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः शिञ्च मे कर्णवीथीम् उत्सर्पत्कौस्तुभश्रीततिभिः अरुणितं कोमलं कण्ठदेशं वक्षः श्रीवत्सरम्यं तरळतरसमुद्दीप्रहारप्रतानं नानावर्णप्रसूनावळिकिसलयिनीं वन्यमालां विलोलल्लोलम्बां लम्बमानाम् उरसितव तथा भावये रत्नमालाम् अङ्गे पञ्चाङ्गरागैः अतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकी विततिम् अपिकृशां बिभ्रतं मध्यवल्लीं शक्रास्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ध्यायामः दीप्तरश्मिस्फुटमणिरशना किङ्किणी मण्डितं त्वाम् ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः विश्वक्षोभं विशङ्क्य ध्रुवम् अनिशमुभौ पीतचेलावृताङ्गौ आनम्राणां पुरस्तात् न्यसनधृतसमस्तार्थपालीसमुद्गच्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेयः इत्यालपन्तं पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम् उत्तुङ्गाताम्रराजन्नखर हिमकरज्योत्स्नया च आश्रितानां सन्तापध्वान्तहन्त्रीं ततिमनुकलये मङ्गलाम् अङ्गुलीनां योगीन्द्राणां त्वदङ्गेषु अधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलं नित्यं चित्तस्थितं मे पवनपुरपते कृष्णा कारुण्यसिन्धो कारुण्यसिन्धो कृष्णकारुण्यसिन्धो पवनपुरपते कृष्णा कारुण्यसिन्धो कृत्वा निःशेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् अज्ञात्वा ते महत्त्वं यदिह निगदितं విశ్వనాథ క్షమేథాః స్తోత్రం చైతత్ సహస్రోత్తరం అధికతరం తత్ప్రసాదాయ భూయాత్ ద్వేధా నారాయణీయం శ్రుతిషుచ జనుషా స్తుత్యతావర్ణనేన స్ఫీతం లీలావతారైః ఇదం ఇహ కురుతాం ఆయురారోగ్యసౌఖ్యం. ఓం తత్సతితి శ్రీమన్నారాయణీయే శతతమం దశకం సమాప్తం. శ్రీహరయే నమః. రమారమణ గోవింద గోవింద. శ్రీకృష్ణార్పణమస్తు. సాంద్రానందాబోధాత్మకం అనుపమితం కాలదేశావధిభ్యాం నిర్ముక్తం నిత్యముక్తం నిగమశతసహస్రేణ నిర్భాస్యమానం అస్పష్టం దృష్టమాత్రే పునః ఉరుపురుషార్థాత్మకం బ్రహ్మతత్వం తత్తావత్ భాతి సాక్షాత్ గురుపవనపురే హంత భాగ్యం జనానాం. గోవిందనామ సంకీర్తనం గోవిందా గోవిందా.